పతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతే ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవహుతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివా శరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా ధనురఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిచాకషీః యామిషుం గిరిశంతహస్తే బిభర్షస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్చావదామసి యతాన సర్వమిజ్జగదయక్ష్మగుంసుమనా అసత్ అత్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహేగశ్చ సర్వాన్ జంబయన్ సర్వాన్ సయాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత భభ్రస్సు మంగళః యే చేమాగుం రుద్రా అభితో దిక్షశ్రుతా సహస్రశో వైశాగుం హేమహే అసవ్యో వసత్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అతో యే అస్య సత్వానోహం తేభ్యో కరణ్ నమః ప్రముంచ ధన్వనస్త్వముభయోరాజ్ఞయోర్జ్యాం యాశ్చ తే హస్త ఇషవః పరాతా భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే నిశీర్య శల్యానా ముఖా శివో నుమనాభవ విజ్యం ధనుక్క పద్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆపురస్య నిషంగతిః యాతే హేతిర్మేడుశ్చ మహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అతో య ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః namo hiranyabhave senanye disham chapataye namo namo vrikshebhyo harikeshebhya pashunam pataye namo nama sasminjadayatve shimate pathinam pataye namo namo bablushaya vivyadine nanam pataye namo namo harikeshayopavitine pushchanam pataye namo namo bhavasya hetyai jagatam pataye namo namo rudraya tathavine kshetranam pataye namo nama sutaya hantyaya vananam pataye namo namo rohitaya sthapataye vrikshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhuvantaye varivaskritaya ushadinam pataye namo nama uccairghoshaya krandayate pattinam pataye namo nama krishnavitaya davate sattvanam pataye namaha namah sahamanaya nivyadina avyadininam pataye namo nama kakubaya nishangine tenanam pataye namo namo nishangina ishudhimate taskaranam pataye namo namo vanchate parivanchate stayunam pataye namo namo nichedave paricharayaranyanam pataye namo nama srikavibhyo jigagum sadbhyo mushnatam pataye namo namo simadbhyo naktam charadbhya prakrantanam pataye namo nama ushnishine giricharaya kulunchanam pataye namo nama ishumadbhyo danvavibhyascha vo namo nama atanvanebhya pratijadanebhyascha vo namo nama ayachadbhyo visrujabhyascha vo namo namo syadbhyo vidyabhyascha vo namo nama asinebhyascha yanebhyascha vo namo nama svapadbhyo jagrabhyascha vo namo nama stishtadbhyo davabhyascha vo namo nama sabhabhyasabhapatibhyascha vo namo namo ashvebhyo ashvapatibhyascha vo namaha nama avyadinibhyo vividyantimbhyascha vo namo nama uganabhyastrigumhatibhyascha vo namo namo krittebhyo krittapatibhyascha vo namo namo vratebhyo vratapatibhyascha vo namo namo ganebhyo ganapatibhyascha vo namo namo virupebhyo vishwarupebhyascha vo namo namo mahatbhyah chulakebhyascha vo namo namo ratebhyo ratebhyascha vo namo namo ratebhyo ratapatibhyascha vo namo namo senabhyassenanibhyascha vo namo namah chatrubhyas sangrahetrubhyascha vo namo namah takshatbhyo rathakarebhyascha vo namo namah kulalebhyah karmarebhyascha vo namo namah punjistebhyo nishadebhyascha vo namo namah ishukrubhyo danvakrubhyascha vo namo namo mrigayubhyashvanibhyascha vo namo namah shvabhyashvapatibhyascha vo namah namo bhavaya cha rudraya cha namah శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శదధన్వనే చ నమో గిరిశాయ చ శిబిర్విష్టాయ చ నమో మీడుశ్చమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వరే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావర్ష్ణ్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్పాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోగ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మినే చ వరూతినే చ నమో విల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్టవే చ ప్రమిషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేసుధిమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుదన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వశ్యాయ చ నమో మేద్యాయ చ విద్యుత్యాయ చ నమః ఈగ్ర్యాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాత్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః స్థిత్యాయ చ కోల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆధార్యాయ చ ఆధ్యాయ చ నమః షష్ట్యాయ చ పేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమః ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుం శిలాయ చ శయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ట్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋಪಗುರಮಾಣಾಯ ಚ ವಿಗ್ಧತೇ ಚ ನಮಃ ಆಖಿನತೇ ಚ ಪ್ರಖಿನತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆರ್ಹತೇಭ್ಯೋ ನಮ ಆಮಿ ವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸತ್ಪತೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚ ನಾಮ ಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೀ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೀ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುಲಂ ಮೃಡಾನೋ ರುದ್ರೋ ತನೋ ಮಯಸ್ಕೃತೆ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಥಂ ಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅದ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವಧೀರ್ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೇ ಗೋಗ್ನ ಉತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅಧಿ ಚ ದೇವ ಬ್ರೂಹ್ಯದಾಚ ನಶರ್ಮ ಯಚ್ಚ ದ್ವಿಬರ್ಹಾ ಸುಹಿಶ್ರುತಂ ಗತ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತು ಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ವಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರಾ ಮಘವಧ್ಯಸ್ತನುಷ್ವಮೀಡುಸ್ತೋಕಾಯ ತನಯಾಯ ಮೃಡಯ ಮೀಡುಶ್ಚಮಶಿವತಮಶಿವೋ ನಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿಲ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತುತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋತ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವಧನ್ವಾನಿ ದನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವ ಅಧೇ ನೀಲಗ್ರೀವಾ ಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾ ಶಿತಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಮಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ಕಪರ್ದಿನಃ ಯೇ ಅನ್ನೇಷು ವಿವೇದ್ಯಂತಿ ಪಾತ್ರೇಷು ವಿಪತೋ ಜನಾರ ಯೇ ಪಥಾಂ ಪತಿರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುದಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚಲಂತಿ ಶ್ರೀಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವದನ್ವಾನಿ ದನ್ಮಸೇ नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतिचीर्गशो दीचीर्गशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यश्विषः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिवर्षनः ॐ शान्ति 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 ॐ अग्ना विष्णु सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिद्धिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मेवश्च मेऽम्बश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च మే జ్ఞాత్రం చ మే సూశ్చ మే ప్రసూశ్చ మే శిరం చ మే లయశ్చ మృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే వధు చ మే సద్భిశ్చ మే సపీతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే నం చ మే క్షుచ్చ మే విహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిరాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శామకాశ్చ మే నివారాశ్చ మే అస్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపుశ్చ మే శామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మఓషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మయేమశ్చ మయిరిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అవృంశుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మేధిపతిశ్చ ఉపాగుంశుశ్చ మేంతర్యామశ్చ మైంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మాశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హారియోజనశ్చ మే इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनीयश्च म आग्नेयेन्द्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृदश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मे ऋतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्टवाच्च मे पष्टौही च मवृक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापि जश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंशिषद्विश्वे देवासूक्तवाच पृथिवीमा धर्मा माहिगुंसिर्मधुमनिष्ये मधुमनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमती देवेभ्यो वाचमुद्यातगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुम् यज्ञाय दातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नोऽस्तु द्विपदे शं चतुष्पदे शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतोच्चायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्मात् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो यस्यासीदाज्यम् ग्रीष्म इत्म शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिद कृता देवा यज्ञम् तन्वानाः अबद्धन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रौषन् पुरुषम् जातमक्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरो तदस्य यत्वैष्यः पद्यागुम् शूत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीष्णौद्यौ समवर्तत पद्याम्बोमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते दाता पुरस्ताद्यमुदा जहार शक्रप्रवित्वान् प्रतिशश्चतस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अप्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्ता विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीषते लक्ष्मीस्य पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शर्णो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्रामम् सङ्ग्रभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमगम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमर्ता शोदित्सन्नम् भीमम् नगाम् वारयन्ते ये तोर्विन्द्रम् स वामेशानम् वस्वत्स्वराजम् न राधसामर्दिषन्नः प्रस्तोषदुपगासि छत्रभत्सामगीयमानम् अभिराधसा जुगुरत् आनो परदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाक् उपक्रमस्वाभरदृशता दृष्णो जनाना अदाशोष्टरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् स नो हि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्च भक्षो जरन्ते गणानां गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन्नोतिभिः सीदसादनम् निषुदीद गणपते गणेशोत्त्वा वा उर्विप्रथमम् कवीनाम् न ऋते त्वत्क्रियते किञ्चनारे महामर्कम् मघवन् चित्तमच्च अभिज्ञानो मघवन्नाधमानान् सखे बोधिवसुपते सखीनाम् रणम् कृतिरणकृत् सत्य सुष्मा भक्ते चिदाभजाराये अस्मान् देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्या पूष्णोहस्ताभ्या अश्विनोर्वैषज्येन तेजसे ब्रह्मवर्चसा या विषिञ्चारे देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् सरस्वत्यै वैषज्येन वीर्यायानाद्याया विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलाया विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्वा साम्राज्येनाविषिञ्चामीन्द्रस्य त्वा साम्राज्येनाविषिञ्चामि बृहस्पते स्वा साम्राज्येनाविषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान् देवयज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं दामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविशाशास्ते तदस्यातदुद्यात् तदस्मै देवारासन्ताम् द्रुपदादिवेन मुमुचानः स्विन्नस्नाद्विमलादिवा पूतम् पवित्रेणेवाज्यम् आपशुन्धन्तु मैनसः भूर्भुवत्सु भोर्भुवत्सु भोर्भुवत्सु वः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेधामागृदः कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषे च सदगुंसमाः एवम् त्वयि नान्यते तोऽस्ति न कर्म लिप्यते नरे
असुर्यानामते लोक अन्धेन तमसावृताः तागस्ते प्रेत्या विगच्छन्ति ये केचात्महनो जनाः अने जदेकं मनसो जवेयो नैन देवा प्रुवन् पूर्वमर्षत् तद्धावतो ज्ञानयत्येति तिष्ठन्तस्मिन् नभो मातरिष्वा दधाति तदेजति तन्नेजति तद्धूरे तद्वन्तिके तदनन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानं ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कश्योक एकत्वमनुपश्यतः सपर्यगाचुक्रमकायमवृणमस्नाविरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभो स्वयम्भूर्या सात्यथोऽर्धान्व्यददाच्छाश्वतेभ्यः समाभ्यः अन्धम् तम प्रविशन्ति ये विद्यामुपासते ततो भूयैव ते तमोयौ विद्यायागुम् रताः अन्यदेवाहुर्विद्यया अन्यदा पुरविद्यया यदि शुश्रुमधीरा नाम येनस्तद्विजचक्षिरे विद्याञ्च विद्याञ्च यस्तत्त्वेदो भयगुंसः अविद्यया मृत्युम् तीर्द्वा विद्यया मृतमश्नुते अन्धम् तम प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदा पुरसम्भवात् इति शुश्रुमधीरा नाम येनस्तद्विचचक्षिरे सम्भूतिम् च विनाशम् च यस्तत्त्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्ने कर्षेयमसूर्य राजा पत्यव्योहरश्मीन् समोहते जोयत्ते रूपम् कल्यारतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगुस्मर अग्नेन यसुपता राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्यस्मज्जुहुराणवे नो भूयिष्ठाम् ते नव मुक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शांति शांति शांतिः। ॐ धाता पुरस्ताद्य मुदा जहारा चक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वानमृत इह भवति नान्यपन्थायनाय विद्यते सहस्रशीरुषम् देवम् विश्वाशम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमानित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्म तत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्दम् विश्वशम्भुवम् पद्मकोशप्रतिकाशगुम् हृदयम् चाप्यदोमुखम् अधो निश्चावितस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्यारोचसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोग्रभुग्विभजन्तिष्टन्नाहारमजरः कविः तिर्यगूर्ध्वमदश्यायि दश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अनियो द्वाव्यवस्थितः नीलतो यदमध्यस्ता विद्युल्लेके वभास्वरा नीवारशोकवत्तन्वी पीताभा स्वत्यनुपमा तस्याशिकाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिसेन्द्रः सोऽक्षरः परमस्वराज् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगम् सदा पश्यन्ति सूरयः दिवेव चक्षुराततम् तद्विप्रासो विपन्यवो जाग्रवागुम् सत्समिन्दते विष्णो यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात्। హంస హంసాయ విద్మహే పరమహంసాయ ధీమహి తన్నో హంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేన మహీమహేషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతిః.